സുന്ദരമൂർത്തി ചരിതവർണ്ണനം. ഉപമന്യു ഭക്തവിലാസം പൂർവഭാഗം ചാപ്റ്റർ 17 വേഴ്സസ് 22-26 ആൻഡ് ബ്രഹ്മകൈവർത്ത മഹാപുരാണം ഉത്തരഭാഗം ശിവക്ഷേത്ര പ്രശംസയം ദക്ഷിണകാളീപുര മാഹാത്മ്യം സുന്ദരമൂർത്തി ചരിതവർണ്ണനം 141 വേഴ്സസ്. Quote from Day by Day with Bhagwan by Devaraj Mudaliar, 4th February 1946. Last night Bhagwan read in Tiruchudi Sthalapuranam that God appeared as Kalayar before Sundaramurthy at Tiruchudi and asked him to come to Kanaperur. This afternoon again he was reading the book. He read out some portions to us and particularly the Sundaramurthy Patalam. 5th February 1946. Bhagwan has been reading the Kalayar Koyil Puranam and explaining to us various portions therein, both in the morning and in the afternoon. He was so absorbed in the songs and the story that he went on explaining to us this morning. Bhagwan was explaining to us how the poet was showing his skill and how a single stanza must have cast the poet several days of anxious thought. Letters from Sri Ramanashramam, 26th January 1946. Yesterday, Bhagwan, while going through Tiruchudi Puranam, spoke regarding the events connected with the visit of Sundaramurthy to this holy place. He acquired the friendship of the Kerala king Cheraman and they both went to Madurai on pilgrimage. In Tiruchudi, they had the darshan of Lord Bhuminatha and offered worship with the song beginning, Oonai Uyir Puhalai. They decided to stay in that holy place for a while and so resided in a mutt on the bank of the river Kaundinya. One night, during the Sundaramurthy Nayanar's stay there, Lord Shiva appeared to him in a dream with a ball in his hand. Ball is the symbol of kingship, and a crown on his head, as a youth of incomparable beauty and with a smile dancing on his lips, said, "We stay in Jyotivana, that is Kalipuram." On hearing these words, Sundaramurthy Nayanar woke up with excitement and recollected the glorious kindness of the Lord who appeared and showered benevolence on him, and narrated the wonderful vision to the Chera king with joy. There and then he sang, overwhelmed with devotion, the Devara Padigam, commencing with the verse, "Thondal Adi Thoyalum," on Lord Kalishwara. Bhagavan copied later the related portions mentioned above, which are presented. Photo descriptions of page number 314. Kalayar Koyil, that is Kanaper temple towers built by Marudu Pandyas. Number 2, Gajapushkarani, that is the temple tank at Kalayar Koyil temple. These two temple towers of Kanaper was built just a few hundred years back by two local chieftains, the Marudu Pandyas, as they were sought by the British rulers for their known freedom fight movement. At a time they had to hide in the nearby forest. However, a news was sent to them that if they failed to surrender, the temple towers built by them would be demolished. As they felt that the saving of the temple tower is their prime duty, they both voluntarily surrendered to the British government and were hanged. The saved two towers of the temple is announcing their supreme sacrifice even today, which are seen in page number 314 in this compilation. The other photo is a big temple tank, Gajapushkarani, of which mention is made in the story of Sundaramurthy Nayanar in the previous pages in Sanskrit.
Atha Sri Upamanyu Bhakta Vilase Purva Bhage Sri Sundara Charite Saptadashodhyayah 22. Tato Rameshwaram Natva Cherena Saha Sundara Anyani Dhamanyabhyarchya आवर्तनगरीम ययौ 23 तत्र श्री मेरु धनवानम गर्भावास विमोचकम आलाहालम गलम देवम नोनावान्नम्य सुंदर 24 तत्रावर्त पुरे सौम्य निद्रा मुद्रित लोचने आविरासित सचूलिक चंडायुध करोहर 25 दर्शयित्वा निजाम मूर्तिम दिव्यां सदारुण कृतिम कानप्पेराख्य दामाहम इत्युक्त्वा ईश तिरोधदे 26 ततः प्रबुद्ध सौम्येश विचिन्त्य स्वप्न वीक्षिताम् श्रीमूर्तिम् प्रोच्य चीराय प्राहाहो करुणेत्यतः 27 नत्वा आवर्त पुरेशानम् चेरेण सह सुन्दरः स्थानम् यूनो महेशस्य कानप्पेर पुरीम् ययौ ब्रह्मवैवर्ते महापुराणे उत्तरभागे शिवक्षेत्र प्रशंसायाम् दक्षिणकालीपुर महात्म्ये सुन्दरमूर्ति चरित वर्णनम् सुमन्तु देववर्म नृपश्रेष्ठ कालीश्वर कथा मया प्रोच्यमानाम् भवान् श्रुत्वा न तृप्तिम् लभते द्भुताम् धन्योऽसि त्वम् अहम् चापि धन्योऽस्मीश्वर भावना ये जगत्सु प्रदर्श्यन्ते शिवभक्ता नरा परम् ब्राह्मणा वा क्षत्रिया वा वैश्याः वा वृषलाश्च वा ऋषयो वा अथ मुनयो वर्णसाङ्कर्यजाश्च वा शिवभक्तिम् प्रकुर्वन्ति एवा केवा नरा भुवि कालीश्वरो हि तद्वश्य तेषु एह विहर्यसौ शिवो भक्त पराधीन स्वर्णवल्लीश्वरो विभु नतीर्नुति स्मृतिर्वापि कीर्तनम् वापि यस्वयम् कार्यते शिवभक्तैस्वै भस्म रुद्राक्षरधारिभिः आत्मानैमेव कालीश समुद्दिश्य स्वयम् विभु स्वर्णवल्ल्या समेत सङ् गत्वा कालीश्वरात् पुरा सुन्दर शिवभक्तानाम् अग्रगण्यम् द्विजोत्तमम् स्तोत्रम् हि कारयामास भक्तवाक्येषु कौतुकी पिता स्वकीय बालानाम् वाक्यम् श्रोतुमना इव सहा कालीश्वरो देव स्वर्णवल्ल्या सह प्रभु कालीपुरात् विनिर्गर्त्य भक्तरक्षण तत्पर 10-20 बिल्वारण्यम् समभेत्य शापाशिलिचिमीकृतान् अनेकरुद्रान् सन्त्रातुम् गतश्चाद्यापि तत्र वै बिल्वारण्ये निवसति स्वर्णवल्ल्या दयानिधि तदपि प्रोक्तमेवेत रुद्रशापविमोक्षणम् अन्यच्च श्रूयताम् राजन् प्रणतार्ति हरोहर कालीश्वर कालीपुरा प्रस्थायेन्द्रपुरम् पुरा स्वर्णवल्ल्या महादेव्या साकम् आसाद्य तत्र च स्वभक्तरक्षणम् कृत्वा सन्निधत्ते अधुनाप्यहो एवम् विचित्रचरितो ज्योतिर्वनविहार्यपि तत्र तत्र च कालीश प्रसादकुरुते नृपः देववर्मा सुमन्तो योगिनाम् श्रेष्ठ सर्वज्ञ करुणानिधे कालीश्वराद्भुतकथा बोधनैकविशारद ब्रूहि माम् विस्तरणेदम् कौतूहलसमन्वितम् कोऽयम् त्वया निगदितम् सुन्दरः पृथ्वीसुर कुत्रत्य कस्य तनयः कुत्र कालीश्वरस्य त स्वर्णवल्ल्या महादेव्या सह गत्वा कथम् द्विजम् स्वतोत्रम् कारयामास तत्सर्वम् ऋषिसप्तम
सुमन्त
श्रूयताम् पृथ्वीपाल कालीश्वर कथा त्वया यत्कथा श्रवणोद्भ प्रसीदेत् कालिकेश्वर अस्ति श्रीपुरमित्येकम् शिवक्षेत्रम् विचित्रदम् चोलदेश परिष्कार कारणम् पावनम् महत् यत्र चन्द्रकला चूड त्यागराजो विराजते तत्र कश्चित् द्विजश्रेष्ठ सर्वशास्त्रार्थपारगः आसीत् वेदान्तनिरत त्यागराजेति भक्तिमान् तस्माज्जग्ने द्विजश्रेष्ठ सुन्दराख्यो गुणाज्वल यो जातु निर्मलादर्शे प्रतिबिम्बो युवेशितु स एवायं सुन्दरो भू सौन्दर्यादृत गुणतस्तत शीलत शिवभक्त्या च शिवस्य गुणवर्णना शिवमाहात्म्य विज्ञानात् शिवक्षेत्राटनात् तथा शिवभक्तैः संसर्गात् शिवैकत्व विभावनात् शिवस्तुतिरतत्वाच्च सुन्दर सुन्दरोद्धने भक्तचित्तानुवर्तीश त्यागराजो जगत्प्रभु यस्य वाराङ्गना भोग चिकीर्षोः दैत्यमातनोत् तस्य माहात्म्यमाख्यातुम् सुन्दरस्य शिवाकृते को वा समर्थो भवति तादृशो एष सुन्दरः स कदाचित् शिवक्षेत्रम् सर्वभूतल संस्थितम् गमिष्यामि प्रणश्यामि स्तोष्यामि च तदीश्वरान् इति निश्चित्य बहुभिः शिवभक्तै शिवोपमै जटारुद्राक्ष भस्माडै शोभमानै सहातुल ततस्ते स शिवकथा वर्णनो दुष्टदिक्तटः तत्र तत्र शिवक्षेत्रम् जगामाद्यन्तपावनम् बहूनाम् शिवभक्तानाम् मध्ये राजति सुन्दरः 31-40 नक्षत्रमण्डलसच्च चन्द्रमण्डलवत्परम् तत्र तीर्थे च विधिवत् स्नात्वा शम्भुम् प्रणम्य च स्तोत्रम् द्राविडवृत्तानाम् दशकेन विधाय च गत्वा प्रतिशिवक्षेत्रम् एवमेव चकारस शिवक्षेत्रेषु गमनम् तीर्थेषु स्नानकर्म च दर्शनम् शिवलिङ्गानाम् नमनम् नवनम् तथा दशकेन च वृत्तानाम् कुर्वन् द्राविडभाषया क्रमेण क्रममाणौसौ शिवक्षेत्राणि सुन्दर जगाम च शिवक्षेत्रम् श्रीमद् आवर्तनामकम् नाम्ना सहायवल्यात्तु सह देव्या महेश्वर सन्निधत्ते सदा यत्र शिवश्रीतनुनायकः तिरकौण्डिन्य नद्यास्तु दक्षिणेषु मनोहरे अनघै शिवभक्तानाम् सहोवास सुन्दरः प्रपूज्यमाना तत्रत्यै शैवे शैवाग्रणीर्द्विजः तस्मिन् स्नात्वा महातीर्थे नृत्यकृत्यानि चाकरोत् तत्र श्रीसङ्गसंयुक्त श्रीतनुम् परमेश्वरम् सहायवल्लिम् अम्बा च दृष्ट्वा नत्वा पुनः पुनः अगायत् वृत्तदशक स्तोत्रेण श्रीतनुम् शिवम् ततः ससङ्गसङ्गाथ सुन्दर श्रीतनुम् विभुम् शयनाख्यम् मठम् प्राप शैवायत्र तु शेरते श्लोक 41-42 सुखसुप्तम् मठे तस्मिन् सुन्दरम् शैववल्लभम् कौण्डिन्यसरिताकूले उत्तरे शिष्यसंवृते स्वप्ने समाद रामेश प्रभुः कालेश्वरोहर रुक्म प्रसून गुच्छाग्र स्वर्णवेत्रल सत्करः
43
हेम पद्म स्रगाबद्ध कुञ्चिकोत्थासि मस्तकः माणिक्य पादुकारूढ पादपङ्केरुह द्वय वयसा यौवनेनाप्लम् भ्राजमानेन तेजसा शोभमान प्रफुल्लाब्ज विकासी मुखमण्डल यद्रूपम् शक्यते द्रष्टुम् न केनापि जगत्स्वपि तादृशम् रूपमास्ताय स्वर्णवल्ली मनोहर लोकोत्तरयुवानन्तम् सर्वावयव सुन्दरम् सुन्दरश्च समालोक्य स्वप्ने पप्रच्छतम् द्विजः तस्त्वम् कुतस्य केनात्र हेतुनाम् उपागतः वक्तव्यम् मम तत्कुर्याम् सर्वलोकैकसुन्दर इति स्वप्ने सपृष्ट ससुन्दरम् गिरम् अब्रवीत् तिरुचुळि शयनम् पल्लिमडम् इत ईशान दिग्भागे गतिते योजनत्रये अस्थिर्ज्योतिवनम् नाम शिवक्षेत्रम् अनुत्तमम् तत्र वासीति माम् विद्धि तवैवान्तिकमागतः एवम् सर्वम् शिवक्षेत्रम् तदीश्वर दर्शनम् करोषितान् गायसीत्वं वृत्तानां दशकेन च अतस्त्वं शिवभक्तेन्द्र सम्यग् गायस्व मामपि इति स्वप्नेद्भुतं दृष्ट्वा प्रबोध्यत स सुन्दरः तत उत्थाय वेगेन सम्भ्रमाविष्टमानसः प्रक्षाल्य पादौ च आचम्य भस्मोद्रुलित विग्रहः सुन्दरः चिन्तयामास स्वप्ने द्रष्टोऽद्य को मया इति ध्यात्वाथ निश्चित्य कालीश सम्भवेत् इति जगौ द्राविड वृत्तानां दशकेन तदैव सह कालीश्वरम् युवेशानम् सुन्दरम् लोकसुन्दरम्। ब्रह्म वैवर्त महापुराणे लक्ष्या काली महात्म्य सुन्दरमूर्ति चरित वर्णनम् श्लोक 55-66। तत प्रातः समुत्थाय श्रीसङ्गै सह सुन्दर गन्तुम् वृद्धपुरक्षेत्रम् यतरेश्म सदा नृपः शिवक्षेत्रोत्तमवर वासिकालेश्वरो विभु गन्तुम् ज्योतिर्वनम् स्वान्ते ध्यात्वा वै सुन्दरे स्थिते षोडशाब्दकृती भूत्वा दिव्यलावण्यसेवधि तरुण्याद्भुतरूपिण्य स्वर्णवल्यान्वित पुर प्रादुर्बभुव तम् दृष्ट्वा सुन्दरो विस्मितोऽभवत् कस्त्वम् केयम् किमर्थम् माम् इहायातौ युवामिति पृच्छन्तम् सुन्दरम् तन्तु बभाषे मञ्जुभाषणः सर्वम् ते कथयिष्यामि महत्यद्य क्षुधावयोः प्रथमम् भोजयानन्नौ सर्वम् वक्ष्यामि अनन्तरम् इति ऊचिवान् सोऽप्येनम् तथैवासु इति सुन्दरः अस्मिन् बिल्ववनेत्यन्त्यम् निर्मले तीर्थवारिणि स्नात्वा नित्यानि कर्माणि निर्वर्त्यार्थम् शिवस्य च भोक्तुम् आगच्छतम् शीघ्रम् युवाम् वृषभुभूक्षितौ इत्युक्तौ सुन्दरेणेतौ बिल्वारण्यम् प्रजग्मतु ततश्च सुन्दरोऽप्याशु प्रेषयामास भक्तिमान् आराळकान् समाहूय कुरुद्वम् पाकमुत्तमम् लेह्यम् चोष्यम् च पेयम् च खाद्यम् चापि चतुर्विधम् भक्ष्यम् च कुरुत क्षिप्रम् शाल्यन् अन्नद्रुतम् शर्करा फलानि पिच स्वादूनि समृद्धानि दधीनि च प्रकल्पयत मृष्टानि गुणवन्ति गुणाक्षणात् इत्युक्तास्ते तथा सुधा मृष्टान्नानि प्रचक्रिरे सुन्दरस्तु विचार्यान्नम् सर्वसिद्धम् इति स्वयम्। श्लोक 67-77। सर्वम् निर्वर्त्य कर्माणि शिवम् सम्यक् पूजयत् अभिषेकादिभिः सर्वै उपचारै उपाचरत् शिवपूजाम् समाप्याथ सुदान् आह्य सस्वकान् ब्राह्मणा दम्पती क्वचित् ईश्वरादिव तेजसा बुभुक्षितौ वृषम् स्नातौ बिल्वारण्येन तिष्ठतः तौ आनयत यूयम् वै भोक्तुम् शीघ्रम् पिपासितौ इत्युक्त्वा प्राहिणोद्भट्या सुन्दरः तद् अनुज्ञया ते च त्वरितम् अभ्येत्य बिल्वारण्यम् विलोकयन् तौ ब्राह्मणौ तु नापश्यन् विचिन्वन्तश्च सर्वतः सुन्दरम् शिवभक्तेन्द्रम् नत्वा ते प्रोचुरञ्जसा सर्वत्रापि विचिन्वद्भिः नैवास्माभि निरीक्षितौ क्व गतौ तौ न जानीमः प्रमाणम् तत्र वै भवान् इत्युक्त सुन्दर किञ्चित् सम्भ्रमेण समन्वितः किम् एतत् इति सञ्चित्य ब्रूते स्म स्वयमेव सतत् तौ तावत् क्षुत्पिपासाभ्याम् परितावभ्य लोक्ययम् क्व गच्छेत्ताम् तथा श्रान्तौ दम्पती सयितौ क्व वा इति ब्रुवन् समुत्थाय ससङ्गो बिल्वकाननम् विचिन्वन् स्वयमेवाथ मूले बिल्वमहातरु विशाले सुन्दरो जिग्रत् भक्ष्याणाम् गन्धमुत्तमम् अन्नादीनाम् च लेपांश्च फलकांश्च समम् ततः दृष्ट्वा च ते सर्वे विस्मयम् जग्मुः रञ्जसा एतस्मिन् अन्तरे सुधा सुन्दरान्तिकम् आययुः. श्लोक 78. प्रसवत्याम् किञ्चिदपि पक्वे सन्नादिकेषु वा न दृश्यते कुतो ब्रह्मन् सर्वतोऽपि न दृश्यते. विज्ञापयितुम् एतत्त्वाम् आगता स्म त्वरान्विता इति तेषाम् वचनम् श्रुत्वा दैन्याद्भूतान्विताः. सुन्दरसाध्वसम्प्राप्य चालयन् सर्वतोक्षिणी ब्रह्मणाय प्रतिश्रुत्य दास्यामिति तथोर्थितम्. न दद्याद्यदि मोहेन ब्रह्महास भवेद्ध्रुवम् क्षिदितौ तौ समुद्विक्ष्य प्रतिज्ञातम् मयाधुना. भोजयिष्यामि वामन्न इति ताव आगतौ यदि किम् करिष्यामि वा तर्हि इत्येवम् ब्रुवति सुन्दरे. पुरतस्य सन्तृप्तौ ददृशास्ते क्षणेन तौ ते सर्वे चाप्य भुक्त्वापि तृप्ता एव अभवम् सदा. इदम् चापि ददाश्चर्यम् सर्वेषाम् समभूत्तदा सुन्दरौ समुद्वीक्ष्य समुपेतम् युवामिह. इत्युक्त्वा सुन्दरः तच्च चित्रम् वीक्ष्य व्यचिन्तयत् मयाद्य शिवपूजायाम् यद्यद् अन्नम् निवेदितम् अदृश्यम् तदभूत् सर्वम् दृश्यम् केवल भाजनम् अत्र बिल्वतरो मूले पत्राणि कुसुमान्यपि दृश्यन्ते तानि पूजायाम् यैर्मया त्वर्चित शिव उत्तरोत्तरमाश्चर्यम् किमेतत् इति सुन्दरे. चित्रार्पितये दृष्ट्वा तौ पुनस्तरुणे स्थिते आकाशवाणे समभूत् सुन्दरम् प्रतिशाङ्करि. शृणु सुन्दर मन्दार कान्तारम् मामकम् प्रियम् मम क्षेत्रेषु सर्वेषु मोक्षदम् चोत्तमोत्तमम्. अगत्वा त्वम् आगात्वा माम् कथम् कुत्र यासि इति वयःसयिन्वा च आकर्ण्या चष्ट सुन्दरः. स्तुत्वा बहुविधे स्तोत्रै शिवम् भक्त्याति सुन्दरम् कालीश्वर दया सिन्धु भक्तवात्सल्य तत्पर. वृत्तानाम् दशकेन त्वाम् तौषम् हि महेश्वर साकान्तारस्तथा गन्तुम् कान्तारम् शक्नुवान् कथम्. एतावद्वित्वहम् च श्रीसङ्ग इति विचिन्तये इत्युक्तवती तस्मिंस्तु पुनर्वागशरीरिणि. अहम् वृषभम् आरुह्य वाहनम् यामि वैपुरः वृषभाङ्घ्रीकुरन्यस्तम् वर्त्मवीक्ष्यानुयाहि माम्. ज्योतिर्वनागमायैव तव सुन्दर मामकम् एतावच्चेष्टितम् विद्धि तस्तिष्ठन्तु साम्प्रतम्. मद्भक्तसङ्गसंयुक्त प्रतिष्ठस्वविलम्बितम् इत्युक्त्वा वीररामासौ सुन्दरस्वरयान्वित. सङ्गैः सह प्रसितोऽभूत् तदानीम् कालनायकः स्वर्णवल्ली समायुक्त आरुह्य वृषभम् पुरः. ययो तस्मिन् गते राजन् विचित्रचरिते शिवे ततो वृषभ विन्यस्त चतुखुरस लक्ष्मणा. वर्त्मना सह सङ्गेन सुन्दरोऽपि प्रक्षेतराम् ससङ्ग मनुष्यान्तम् महोक्षान्द्रि सफाकनम्. दृष्ट्वा दृष्ट्वा प्रमादेन मध्ये कान्तारमीश्वरः विचित्रलीलः पदवी चिन्निभूता नडुपुरम्.
वर्स नंबर 101.
लोपयामास संलीन शोधयिषु अस्य हृत् तथा सुन्दर सन्धिया सर्वतो मार्ग मार्गणम्. कुर्वन्ति स्म भ्रमन्तस्ते चतुर्णाम् च पदाम् पदम् वृषभस्य त्रयाणाम् वा लयोः एकस्य वा नते. विजानतेन तेषाम् तु कश्चित् इहात्र दृश्यते खुरवत् वृषभस्येदम् ततो अन्यो वक्ति तत्खुरम्. एतद् एवैति तदिदम् इहैव इति अपरो भणत् धावित्वा पुरतोऽन्विष्य पदम् भद्रपदस्य च. मृगयस्य पदम् पृष्ठे गवेशस्व च दक्षिणे वामपार्श्वे मार्गस्य न लभे खुरकुट्टनम्. न प्रपद्यामहे पद्याम् कुतो वा वर्तनीयत्यपि पुरतः पार्श्वभागे वा वामे वा दक्षिणेऽपि वा यन्नागतम् वास्माकम् जागतीति हि नाटनम् दुश्शरा न महीभागा शिला सकलकण्टकैः दुष्प्रवेशावनाभोगा कण्टकी द्रुमसङ्कटैः इति अन्योन्यम् ब्रुवन्तश्च श्वसन्तान्तश्च अथ सुन्दरम् कुर्वन्तो घोषमासाद्य किङ्कर्तव्यमितः परम् इति तेषु विहस्तेषु समस्तेषु अपि सुन्दरः कालीश्वरालयाक्रोश त्रयेणैवृतदक्षिणे अलब्ध्वा पदवीम् स्तोत्रम् चक्रे कालीश्वरम् प्रति अहम् तु शिवभक्तानाम् सङ्गै मध्यैवनम् ब्रवन् किम् करोमिह कालीश समाधिशस्त्वयै बहिः इति चिन्तयस्तस्य पुरतो वृषवाहन युवेश्वर प्रादुरास भक्तवात्सल्य कुरुत् विभुः तम् दृष्ट्वा वृषभारूढम् असौ सुन्दरः शिवम् एतत्स्तुतिप्रीतियुक्तो मोहयन् वाक्यमब्रवीत् सुन्दरागच्छ मद्वाह वृषपादखुराम् विना अध्वना अन्येन वन्येन इत्यादिश्य पदवीम् हर.
वर्स् नम्बर् 114 श्लोका 115-128
अन्तर्दधे ततश्चित्रम् वीक्ष्य तत्सूचिताध्वना अर्धक्रोशम् जगामैव सुन्दर सङ्गवानपि एवमागच्छीतदा तस्मिन् कालेश्वर पुनः मार्गम् विलोपयामास तञ्चापि परमेश्वर ततो मार्गभ्रमे प्राप्य सर्वतश्च सुन्दरः चिन्ताम् जगाम महतीम् मार्गलिप्सुर्महावने इत्थम् चिन्ता सन्तत स्वान्तवृत्ते प्रादुर्भूतम् कालिका क्षेत्रमस्य अग्रे अन्यम् लिङ्गकोटि प्रपूर्णम् दृष्ट्वा पादक्षेपणम् मे कथम् स्यात् इति बुद्धिम् विधायाथ सर्वतो लिङ्गकोटिभिः निबिडे वर्त्मनि तत सुन्दरश्चित्रमाश्रितः कालीश्वर विलासात्तु ददर्शेक पदम् पुनः सुन्दरो लिङ्गरहिताम् सर्वेषाम् गमनक्षमाम्
श्लोकम् 121
आलोकयन् ततो ज्योति वनम् प्रति तदध्वना नमन् दृष्ट्वा स सङ्गोऽसौ जगाम स कुतूहल सुन्दर शिव भक्ताश्च सर्वे सर्वत आदृता अग्रत समुद्रगाग्रम् विवेशालय भूषणम् गोपूरम् बहुचित्राढ्यम् प्राकारम् च तथाविदम् सहस्रम् भ्रम समुद्ग्रीवा पश्यन्ति स्व नमन्ति च विवेश्वर प्रदत्तेन पथा तेन गतास्मदा मन्दार पादपा दिव्यान् सुगन्धी कुसुमायुतान्
वर्स् 125
देवदारु तरुश्चापि च्यूतोश्च फनसाम् तथा अगरून् फलिनश्चापि सर्वतो मधुरान्द्रुमान् नानाविधा नित्यफला नित्यपुष्पान् मनोहरान् क्वचित् केदार पालिश्च नित्यसस्य मनोरमा क्वचिन् मुनिना कुटजान् पश्यन्तस्तापसावृतान् कोकूयमानान् परितः कोकिलान् कोकिनस्तता सारसैः चक्रवाकैश्च हंसैश्च समलङ्कृता पद्मिनी पद्मकल्हार नीलोत्पल विराजिता.
तम वैवर्त पुराणे सुन्दरचरितम् 129 आन्वर्ड्स् गीतम् मधुन्मत्त भृङ्गावलि निनादिता वीक्ष्य वीक्ष्य तदा प्रापुर् गजपुष्करणी तटम् कालीश्वरस्य सौभाग्य नयनानन्दवर्धकम् विलोक्य सस्तु सेत् सर्वे शिवगङ्गा जले तुले सुन्दरश्चापि तत्तीर्थे स्नात्वा श्रीसङ्गसंयुतः शुक्लाम्बरदुरो भस्म रुद्राक्षाभरणोज्ज्वल युवेश्वरस्य सेवार्थम् जगाम सह भक्तिः युवेश्वर तदा दिव्य चरितस्य स्वस्य मायया आलयम् गोपुरादाढे अन्तर्जाय पुरोष्वतु तस्थाने तोय सम्पूर्णम् पद्माकरम् अदर्शयत् tadasa sundara tachya tataka viksha vismitaha padmakara kimetanme drashyate bala yogatah krupa sadu suveshasya kva prasadu yuveshasya kva pakara kva gopuraha iti dhyatva muhurtam sa avasyevam achintaya yayato me sivakshetan nirgatya kamalapurat sarvam vaicharato nasit atragantum hi nomalah anenaiva paradena lino bhutarunesvarah iti nishchitya manasasri sangecha api pashyati gagavaga kshamartam savrutam dravidbhashaya pranatarti haro deva karunya tarunesvarah madhye padmakaram divyam adrushyam charma chakshusam adarshayat jyoti etat drashyanta divya chakshusam sasantushta manabhuya prajagautarhi shankarah kapardam darshayamasa saivat pularevatam mastakadi samayuktam sarvabharana bhushitam ganga chandra kalachudam chaturvibahuvi mrugam Shloka 142 onwards. Varshum varam ishanam abhitin dadhyatam shivam svayanavalli pamabhagam shurashabda krutim haram sarvalankara sayuktam svatmanam taruneshvara darshayamasatam tat vrittagananu gunyatah shivah tat sampritaradaya svalayamdham adarshayat Soumya, tataha kalishwaram drishtva natva stutva parikraman. Soumesham sundaram vamcha meenakshim sundareshwaram punha kalishwaram natva bhatyatishtasa sannidav. Yuveshwara sundaraya sasangaya dayanidhi arpayamasa bahusho dhanamavya sudurlabam. Sopi sundara evantam Bhaktarti harameshwaram, bhaktakirtikaram samyak, natvastutva viniryayav, alaya shirtanupate, aishanyam dishipavane, tate kaundinya saritasya, uttareshai kamate, sundara nayanartham tu, yatratam taruneshwara, tatra adhyapi virajete, swayanavalli yuveshwaru, vrushabhandri khuranyasa, Lopam yatra swayam vyagha, swayam viliyascha tatha, sundaram chapya mohayat. Verse number 151. Sarvesham jagato martho, jyotirvanam upagata, tadyantardi madhitya, kyakya sabyate janai. Yatra kalishwaro devo, adarshaya swalayam sarah, tad adhyapihi gambiram, yuveshalayam ikshate. Iti kalishwarasyesha mahima varnito maya adhyadbhutatama punya papahari cha shrunvatam pavane vasatam punya karakeshaye kamate sanidhyam kurvato swarna vallikalishayo naraha chintanam kurute yastu papedhyasa vimuchyate ipsitam pradatam ishaha swarna vallyasaha prabhu Idam sundara mahatyam yasrunoti patatyapi sarva papai vimuktasa sivasayujyam apnuya ittham saiva shiromanam virachitam shri sandare atyadvutam leelam papa nivarinim shruti krutam kaleshwarena adarat proktam te yadhi deva varman rupate shrotum karoti ihayoh Vancham chetasi danyayesha sapuman prapnoti nityam shriyam. Iti Shri Brahma Vaivarte Mahapurane Uttarabhage Dakshinakali Pura Mahatme Sundaramurti Charita Varnanam Nama Trimshati Adhyayaha.